नमस्सर्वेभ्यः अद्य शिक्षावर्गस्य अष्टादशः पाठः अक्टोबर् मासस्य अष्टाविंशः दिनाङ्कः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो ह्यः एव वर्गः क्षम्यतां स्क्रीन् शेरिङ्ग् इदानीं स्क्रीन् द्रष्टुं शक्नुवन्ति वा ह्यः व्याकरणभागे विसर्गस्य रेफः कुत्र भवति इति ज्ञातवन्तः तस्य अभ्यासं च कृतवन्तः काव्यभागे द्वयोः सुभाषितयोः अध्ययनं कृतवन्तः एते सत्पुरुषाः परार्थघटकाः क्वचित् पृथ्वीशय्यः इति अद्य अग्रे गच्छामः अयं ह्यः दृष्टः सन्धिः विसर्गस्य रेफः कुत्र भवति स्वरः मृदुव्यञ्जनं परतः अस्ति तदा पूर्वतः कः स्वरः इति दृष्ट्वा कार्यं भवति यदि विसर्गात् पूर्वं ह्रस्व अकारः अस्ति तस्मात् ह्रस्व अकारे मृदुव्यञ्जने वा परे उकारः आदेशः भवति अन्येषु स्वरेषु परेषु लोपः भवति यदि विसर्गात् पूर्वं दीर्घः आकारः अस्ति तस्मात् सर्वेषु स्वरेषु मृदुव्यञ्जनेषु परेषु विसर्गस्य लोपः भवति विसर्गात् पूर्वम् अन्यः कोऽपि स्वरः इ ई उ ऊ यः कोऽपि स्वरः अस्ति तस्मात् स्वरे मृदुव्यञ्जने परे रेफः भवति इति त्रयः सन्धयः दृष्टाः एतत् सर्वमपि अग्रे किमस्ति स्वरः अस्ति अथवा मृदुव्यञ्जनम् अस्ति तर्हि अग्रे कर्कषव्यञ्जनम् अस्ति चेत् किं भवति इति इदानीं द्रष्टव्यम् सो वी हेव् कवर्ड् आल् पासिबिलिटीस् स्वरः अथवा मृदुव्यञ्जनम् अस्ति चेत् किं किं भवति इति सर्वं दृष्टम् अग्रे कर्कषव्यञ्जनम् कर्कषव्यञ्जनं नाम किम् वर्गस्य प्रथमद्वितीयवर्णौ श ष स सो क ख च छ ट ठ त थ प फ सो दशवर्णाः श ष स एतेषां कर्कषव्यञ्जनम् इति नाम तेषु परेषु किं भवति इति द्रष्टव्यम् सो अद्य सः सन्धिः विसर्गस्य कर्कषव्यञ्जनेषु परेषु विसर्गस्य स्थाने सकारः भवति सो कर्कषव्यञ्जनेषु क ख प फ एतौ विहाय सो वेन् विसर्ग इस् फालोड् बै कर्कषव्यञ्जन अदर् देन् क ख प फ सो एतान् वर्णान् विहाय अन्येषु कर्कषव्यञ्जनेषु परेषु विसर्गस्य सकारः भवति इति सामान्यः नियमः तत् पुनः अग्रे पश्यामः तत्र यथा उक्तं कर्कषव्यञ्जनानि इत्युक्ते क ख च छ ट ठ त थ प फ प्रतिवर्गं प्रथमद्वितीय वर्णाः अनन्तरं श श स एतानि कर्कषव्यञ्जनानि सो तत्र गणत्रयमस्ति क ख प फ एतेषु परेषु सकारः न भवति अन्येषु किं भवति यदि स त थ अस्ति तर्हि विसर्गस्य सकारः भवति श च छ एतेषु परेषु विसर्गस्य सकारः भवति तस्य सकारस्य पुनः षकारः भवति अस्माभिः श्चुत्वसन्धिः दृष्टः किल सकारस्य श च छ एतेषां सम्बन्धः अस्ति चेत् शकारः भवति. एवमेव यदि अग्रे ष ट थ एते वर्णाः सन्ति तर्हि विसर्गस्य सकारः भवति. सः सकारः पुनः ष्टुत्वं प्राप्य षकारः भवति. सो सर्वेषु सकारः भवति विसर्गस्य, अग्रे अपि किञ्चित् कार्यं भवति इति विशेषः. उदाहरणानि पश्यामः चेत् ज्ञायते. आदौ प्रथमस्य सकार तकार थकार. सो तत्र तु विसर्गस्य सकारः भवति, सकारः एव श्रूयते. सो रामः तत्र, सो तकारः अस्ति अतः विसर्गस्य स रामस्तत्र. हरिः साधुः, हरिस् साधुः. गुरुः ते, गुरुस्ते. बालाः सर्वे, बालास् सर्वे. योजयित्वापि लेखितुं शक्यते, अहं तु केवलं स्पष्टतार्थं पृथक् लिखितमस्ति मया. सो रामस्तत्र, हरिस्साधुः, गुरुस्ते, बालाः सर्वे. आयुः सत्वम्, आयुस्सत्वम्, आयुस्सत्वम् इति भवति. सो विसर्गस्य स त थ एतेषु परेषु सकारः भवति. सकारस्य अग्रे किमपि कार्यं न भवति. यत्र तु ष च छ एते वर्णाः सन्ति तत्र सकारः भवति. सः सकारः एव पुनः षकारः भवति. यथा हरिः शेते, तत्र आदौ विसर्गस्य सकारः, हरिस् शेते. तस्य सकारस्य श्चुत्वसन्धिः भवति, हरिष्येते. रामः च, रामस् च, श्चुत्वे रामश्च. ततः छात्राः, ततश्छात्राः. श्चुत्वे कृते ततश्छात्राः. मनः शान्तिः, मनस् शान्तिः. सकारस्य श्चुत्वं मनश्शान्तिः. सो श च छ, श एतेषु परेषु एवं. पुनः चकारः, कुतः चिन्ता. सो कुतस् चिन्ता, सकारस्य शकारे कुतश्चिन्ता. सो श च छ सकारः भवति, अग्रे श्चुत्वम् अपि भवति. समानरीत्या यत्र ष ट थ एते वर्णाः सन्ति तत्र सकारः भवति, पुनः ष्टुत्वेन षकारः भवति. सो बालः षष्ठः, बालस् षष्ठः. सकारस्य षकारे बालषष्ठः. धनुः ठङ्कारः, सकारः धनुस् ठङ्कारः. सकारस्य ष्टुत्वे धनुष्ठङ्कारः. हरेः टीका, सकारे हरेस् टीका. तस्य ष्टुत्वे हरेष्टीका. कन्याः षोडश, कन्यास् षोडश. ष्टुत्वे कन्याषोडश. सो पक्षिणः टिट्टिभाः, पक्षिणस् टिट्टिभाः, पक्षिणष्टिट्टिभाः. सो दिस् पार्ट् पूर्वमेव दृष्टं श्चुत्वसन्धौ. इदानीं सः सकारः कथमागतः इति चेत् विसर्गस्य एतेषु परेषु सकारः भवति. सो क ख प फ एतेषु परेषु किं भवति इति वस्तुतः नास्ति इत्युक्ते पृथक् सन्धित्वेन अध्ययनं नास्ति अत्र शिक्षास्तरे. तथापि अहं कथयामि. सो यदा विसर्गस्य क ख प फ भवति यथा बालः कः सेवकः खनति एकस्मिन् पक्षे. सो देर् आर् टु आप्शन्स् पक्षद्वयं सम्भवति. एकस्मिन् पक्षे विसर्गस्य विसर्गः एव भवति. अन्यस्मिन् पक्षे बालः कः सेवकः खनति अन्तःपुरं तरुः फलति. सो एतत् उप् क् इति वर्णद्वयम् अस्ति. यथा अनुस्वारः विसर्गः च अयोगवाहौ इति कथयामः एतौ अपि अयोगवाहौ. सो अस्य अह्क् इत्यस्य जिह्वामूलीयः इति नाम. इट् इस् काल्ड् जिह्वामूलीय. जिह्वामूलीयः अर्धविसर्गसदृशः. विसर्गः बालः. इट्स् अ रिलीज़् आफ् ब्रेथ्. सो तत्र अर्धं भवति बालः कः सेवकः खनति इति सः जिह्वामूलीयः इति उच्यते. एवमेव पाप एतेषु परेषु अन्तःपुरं तरुः फलति एषः वर्णः उपध्मानीयः इति कथ्यते. सो एतेषां लेखने पृथक् सिम्बल् इति लेखनीयम् इति नास्ति. सामान्यतः लेखने विसर्गः एव लिख्यते. उच्चारणकाले उच्चारणं क्रियते. अस्ति एवं लिखन्ति. सो दिस् इस् द सिम्बल् विच् इस् यूस्ड् कामन्लि फार् बोत् जिह्वामूलीय अण्ड् उपध्वानीय. किन्तु टैपिङ्ग् इत्युक्ते प्रिण्ट् मोड् मध्ये एतत् न भवति सामान्यतः. अतः विसर्गस्यैव एनि प्रिण्टेड् बुक्स् आर् मेटीरियल् हाव् विसर्ग. किन्तु उच्चारणसमये जिह्वामूलीयस्य उपध्मानीयस्य च उच्चारणं क्रियते.
अनन्तरम् अयम् एकः संशयः भवति. तत्र फ इति संस्कृते नास्ति. द सौण्ड् फ
विच् इस् अ लैक् व वेर् द अप्पर् दन्तानाम् ओष्ठेन सम्बन्धः भवति सः वर्णः नास्ति संस्कृते. सो प फ उभयोरपि ओष्ठाभ्याम् एव उच्चारणं. प फ बोत् लिप्स् क्लोज् अण्ड् ओपन् फार् प फ उपध्मानीयस्य अपि ओष्ठः एव स्थानम्. ओष्ठौ एव स्थानम्. अतः अन्तःपुरं. सो यु विसर्गः भवति अण्ड् यु क्लोज् द लिप्स् अण्ड् देन् यु ओपन्. सिमिलर्ली तरुः फलति इति उच्चारणं भवति.
स्पष्टं. सो विसर्गस्य कर्कषव्यञ्जनेषु परेषु सकारः इति सामान्यः नियमः. तत्र क ख प फ एतेषु परेषु सकारः न भवति. जिह्वामूलीयः उपध्मानीयः भवति. अन्यत्र सकारः भवति. सकारस्य अग्रे श्चुत्वं श्चुत्वम् अपि भवति इति नियमः. अभ्यासं कुर्मः. तन्मध्ये केऽपि प्रश्नाः सन्ति चेत् पृच्छन्तु. I assume your hands are for the exercise. So, abhyasam kurmaha. E kartum ichanti hattam unnayantu. Mahalakshmi.
Namaste. Ramaha, Taplas Tanayaha, Ramas Tanayaha, Tritiyam.
Ramas Tanayaha, Sutakare Pare, Sakaraha.
Ita plus Tataha, Itas Tataha, Pratama.
Itas Tataha, Pratama. Dhanyavadaha. Kalyana Krishna.
Kutas Twara.
Kutah Swara, Kutah Swara.
Surya Tejasvi.
Surya Tejasvi, Surya Tejasvi. Sita Narayani.
Atas
tatha, atas tatha,
kutah tatra, kutas tatra,
kutas tatra, sami. Adjuna,
Krishna ha turaga ha, Krishna turaga ha. Dutiya
Rupam. Yeah. There's a typing error there.
Yeah, typing. Not kru, but kru.
Yeah.
Tataha tatra, tatas tatra, dutiyam.
Tatas tatra, tritiyam. Okay. Guys.
Hello.
Ah. Namaste.
Harishaha plus two. Harishtu. First one.
Harishastu.
Yataha plus Tarunaha. Yatas Tarunaha.
Yatas Tarunaha. Atra tu kevalam sakarasyeva udaharanani santi. Atra splitting sandhehe vibhagaha kriyate. Tatra anye api santi. Avinash Vaidya.
Namaste madam. Ramesha Shastra Chhatra. Ramesha plus Chhatra. First one.
Tatra visargasya sakaraha punaha tasya shakaraha.
Shakara. Gaucharati. Gauhu plus charati. Dutiya one.
Gauhu charati. Samyak. Lata Shekhar.
Namaste Bhagini. Krishnaha cha. First one.
Krishnaha cha.
Harshaha chaturaha. Tritiyam.
Harshaha chaturaha. Samyak. Harshash Chaturaha. Raj Sharma. This is Tittibhaha. And there is some font.
Tittibhaha.
Tittibhaha.
Sundaraha Tittibhaha. Tittibhaha.
There is some. Sorry, there is some font problem in the question.
Shubhraha Chandraha.
Shubhraha Chandraha. Ramakrishna Rao.
Dirgash Dirgaha Shamataha. First one.
Dirgaha.
Dirgaha Shamataha.
Dirgash Shamataha.
Dirgash Chamasaha. Dirgata. Fourth one.
दीर्घः चमसः लॉन्ग स्पून अनेकाः टीकाः
अनेकः टीकाः थर्ड वन
अनेकाः टीकाः उत्तमम् राजेश्वरी श्रीनिवास
अतः प्लस चिरंतनः सेकंड वन
सम्यक् अतः चिरंतनः उत्तम नेक्स्ट वन सुधा श्रीकांत
एकः स्वादुः विल बिकम एकः स्वादु दैट इज सेकंड वन
उत्तमम् एकस्वादु
नैकः सुप्तेषु सुप्तेषु विल बिकम नैकः सुप्तेषु
सम्यक्
दैट इज फर्स्ट वन
नैकः सुप्तेषु
ओके नैकः चार्थान् विल बिकम नैकः चार्थान् Ashchitvam will happen after that. So, for third one.
Naikashchartha. Uttamam. So, ekasvadunathamjita naikassupteshu jagriyat ekona gachet adhvanam naikashchartan prachintayet. It is Subhashitam. Ekaha svadu nabhunjita. So, svadu aharam bahuttamam bhojanam nirmaya ekaha eva तस्य भोजनं न कर्तव्यम् एकेनैव तद् न भोक्तव्यम् इति केवलम् अहम् अस्मि किमपि एकं सम्यक् मधुरं निर्माय अहम् एका एव खादामि चेत् तत् वरं न एकः स्वादु न भुञ्जीत भोजनं यदा सर्वैः सह संविभज्य भुज्यते तदैव तस्य स्वादः अधिकः भवति एकस्वादुन भुञ्जीत भुञ्जते ते त्वघं पापाः ये पचन्ति आत्मकारणात् इति भगवद्गीतायां कृष्णः कथयति काण्टेक्स्ट् भिन्नं सो अत्र भिन्नं तस्य एतत् उक्तं सो एकः स्वादुन भुञ्जीत भोजनं मिलित्वा करणीयं नैकः सुप्तेषु जाग्रियात् सर्वेपि स्वपन्ति एकः एव जाग्रतः इति न भवेत् तथा यदा भवति मनसि दुष्टानि चिन्तनानि उत्पद्यन्ते अतः नैकः सुप्तेषु जाग्रियात् एको न गच्छेत् अध्वानम् अध्वा इत्युक्ते मार्गः कुत्रचित् दूरप्रयाणं विशिष्य पुरातनकाले एकस्मात् स्थलात् अन्यस्थलगमनम् इति तु क्लिष्टमेव मध्ये वनं भवति चोराः भवन्ति दुष्टप्राणिनः भवन्ति अतः अध्वानम् एकः न गच्छेत् प्रयाणकाले यदि सम्भवः मिलित्वा गन्तव्यं नैकश्चार्थान् प्रचिन्तयेत् अर्थान् प्रचिन्तयेत् किमपि चिन्तनीयं कस्यचिद् विषये मन्थनं करणीयं तद्विषये सम्यक् चिन्तनीयं चेत् एकः न चिन्तयेत् ग्रूप् थिङ्किङ्ग् सो मिलित्वा चिन्तयामः चेत् विषयस्य भिन्न अंशाः ज्ञायन्ते So different facets of an issue. अतः एतत् सर्वम् अपि मिलित्वा करणीयं भोजनं निद्रा प्रयाणं मन्त्रालोचनम् अथवा चिन्तनम् अग्रिमम् अन्तिमं केपि कर्तुम् इच्छन्ति those who haven't tried so far. उमा उमा भगिनि
न धर्मः चरितो न धर्मश्चरितो
न धर्मश्चरितो
शनैरावर्तमानः तु शनैरावर्तमानस्तु
शनैरावर्तमानस्तु सम्यक् मनुस्मृतेः श्लोकः नाधर्मश्चरितो लोके सद्यः फलति गौरिव शनैरावर्तमानस्तु कर्तुः मूलानि कृन्तति सो अधर्मः चरितः वयं किमपि असत्कार्यं कुर्मः न सद्यः फलति झटिति एव तस्य फलं न लभ्येत नाधर्मः चरितः लोके सद्यः फलति गौरिव अत्र गोशब्दस्य भूमिः इत्यर्थः यथा भूमौ अहं बीजावापं करोमि झटिति तस्य वृक्षः भवति फलं लभ्यते इति न आम्रस्य बीजम् उप्यते चेत् वर्षाणि भवन्ति तस्य फलं प्राप्तुम् एवमेव अधर्मः चरितः लोके न सद्यः फलति झटिति तस्य फलं लभ्यते इति न किन्तु शनैः आवर्तमानस्तु शनैः मन्दं मन्दम् आवर्तमानः तत्र पुनः पुनः तस्य आवर्तनं क्रियते इदानीं भूमौ यदा किमपि बीजादिकं बीजादीनां वपनं क्रियते भूमेः आवर्तनं क्रियते सो इट् इस् यु फ्लो द लेण्ड् एण्ड् यु कीप् एरिङ्ग् इट् सो द सायिल् इस् बीङ्ग् दट् इस् काल्ड् आवृत्ति इन् द केस् आफ़् फार्मिङ्ग् अस्माकं विषये तु आवर्तमानः इत्युक्ते पुनः पुनः तस्य एकं क्रियते अद्य श्वः अन्यत् क्रियते श्वः अन्यत् क्रियते इति तत्र अडिशन्स् सो यदा भवति कर्तुः मूलानि कृन्तति सो मन्दं मन्दं भूमौ कर्तुः यः पापाचरणं करोति तस्य मूलानि कृन्तति कृन्तति कर्तयति लुनाति इत्यर्थः सो इट् कट्स् द रूट्स् अर्थात् अग्रे महत् फलं तस्य अनुभूयते यद्यपि झटिति फलं न ज्ञायेत अग्रे तस्य फलम् अनुभूयते इत्यर्थः सो नाधर्मश्चरितो लोके सद्यः फलति गौरिव शनैरावर्तमानस्तु कर्तुर्मूलानि कृन्तति अत्र व्याकरणभागः समाप्तः एनी क्वेश्चन्स् इन् विसर्गसन्धि विसर्गसन्धिः अस्माभिः अधीतः सो स्वरे मृदुव्यञ्जने किं भवति इत्यत्र सन्धित्रयम् अस्ति विसर्गस्य उत्वं लोपः रेफः इति कर्कषव्यञ्जनेषु परेषु तु सकारः भवति अग्रे गच्छामः काव्यांशाः तत्र काव्यकथा इति कश्चित् भागः अस्ति शिक्षावर्गे तत्र काव्यस्य कथा दीयते एकः प्रश्नः अस्ति क्षम्यतां कल्याणकृष्णः सो चिरन्तनं नाम किम् इति वा क्षम्यतां
गुड् ईवनिङ्ग् मै क्वश्चन् इस् द सकारस्य आगमनं इट् लुक्स् लैक् इट् इस् कमिङ्ग् फ्रम् दि सुप् यु नो अस् सून् अस् यू पुट् अ विसर्ग इन् देयर् the visarga comes from sup right rama I mean sakara, it kind of looks like it
it looks like it it's like it is coming from sakara if you look at pani anything it comes from sa becomes ra mm-hmm. so the ra becomes visarga and then the visarga itself arises only in specific occasions only when there is a karkasha vyanjana you actually have a visarga mm-hmm. and then it is converted to a sakara
Okay.
The other sandhis where the ukaradesha or repha or lopa, you don't have a visarga at all. The repha, I mean the sa, rep, ra itself gets converted into other things. So that is Paninian sakya. Atra tu visarga skya iva sakaraha bhavati.
Okay.
Sarkashi vyanjane par.
Okay, thank you.
सो काव्यांशाः काव्यकथा इति कश्चित् भागः अस्ति शिक्षावर्गे यत्र प्रसिद्धानां काव्यानां कथा दीयते. पूर्वतनस्तरे रघुवंशस्य कथा आसीत्. अत्र अस्मिन् शिक्षास्तरे शिशुपालवधं तथा किरातार्जुनीयम् इति काव्यद्वयस्य कथा संक्षेपेण गद्यरूपेण दीयते. काव्यकथा इति तत्र कथा एव प्रधानम्. ततः पूर्वं काव्यस्य विषये किञ्चित् जानीमः. एतत् वस्तुतः अग्रिमस्तरे कोविदस्तरे अस्ति काव्यस्य विषये. पूर्वमेव किञ्चित् संस्कारः भवतु इति धिया किञ्चिदुच्यते. सो काव्यम् इत्यस्ति. संस्कृते यत्किमपि लिख्यते तत्सर्वमपि काव्यशब्देन सामान्यतः गृह्यते. सो यथा इदानीम् अन्यभाषासु पोयट्रि इत्यस्ति, वयं सामान्यतः काव्यम् इत्यनेन पोयट्रि इति चिन्तयामः, किन्तु तदेव न. काव्यम् आल् लिटरेचर् आल् क्रियेटिव् रैटिङ्ग् इस् काव्य. सर्वमपि काव्यशब्देन गृह्यते. काव्यं किम् इत्यत्र बहुविधानि लक्षणानि सन्ति. काव्यशास्त्रं साहित्यशास्त्रम् इत्येव अस्ति. तत्सम्बद्धाः ग्रन्थाः सन्ति. काव्यप्रकाशः अस्ति, साहित्यदर्पणः अस्ति, ध्वन्यालोकः, रसगङ्गाधरः इत्येवं साहित्यशास्त्रे बहवः ग्रन्थाः सन्ति. तत्र काव्यस्य लक्षणं किम् इति बहुधा चिन्तनं प्रवर्तते. सो रमणीयार्थप्रतिपादकः शब्दः काव्यम् इति एकं सामान्यतः अङ्गीकृतं लक्षणम्. सो शब्दः काव्यं, कीदृशः शब्दः? रमणीय अर्थप्रतिपादकः, ह्यः सुन्दरम् अर्थं बोधयति अथवा कञ्चिदर्थं सुन्दररीत्या बोधयति, तत् काव्यम् इति कथ्यते. तत्र काव्यं द्विविधं भवति. दृश्यकाव्यं, श्रव्यकाव्यम् इति द्वेधा विभागः. दृश्यकाव्यं यत् प्राधान्येन दर्शनार्थम्, अर्थात् रङ्गभूमौ केचन नटन्ति, तस्य दर्शनं कृत्वा काव्यस्य आस्वादनं क्रियते, तादृशं काव्यं दृश्यकाव्यम् इत्युच्यते. आङ्ग्लभाषायां ड्रामा इति एकेनैव पदेन तस्य एतद् भवति, किन्तु संस्कृते बहुविधानि दृश्यकाव्यानि सन्ति. तत्र रूपकम् इति एकः प्रभेदः अस्ति दृश्यकाव्ये. उपरूपकम् इति अपरः प्रभेदः. तत्रापि दशरूपकाणि सन्ति, अष्टादश उपरूपकाणि सन्ति. तेषां प्रभेदः दैर्घ्यम् आश्रित्य भवति, बेस्ड् आन् द लेन्त्. नायकम् आश्रित्य भवति, कीदृशः नायकः इति प्रभेदाः सन्ति. कथाम् आश्रित्य भवति, कीदृशी कथा, पुराणकथा वा कवेः एव नूतनं वस्तु वा इति. रसम् आश्रित्य भवति, कः प्रधानः रसः. नवरसाः सन्ति, शृङ्गारहास्य करुणा इत्यादि, तेषु कस्य रसस्य प्राधान्यम् इति अंशचतुष्टयम् आश्रित्य. सो द लेन्त्, द प्लाट्, द हीरो, द रस, द सेण्टिमेण्ट्. सो एवम् अंशचतुष्टयम् आश्रित्य विभागः क्रियते, भिन्नप्रभेदाः प्रभेदानि काव्यानि इति. तत्र रूपकाणि सन्ति, उपरूपकाणि सन्ति. सामान्यतः वयं नाटकं ड्रामा इति यत् कथयामः तत्सर्वमपि दृश्यकाव्यम्. तत्र नटनस्य दर्शनस्य प्राधान्यं, दृष्ट्वा तेषाम् आनन्दः अनुभूयते इति. तद्भिन्नं सर्वमपि काव्यं श्रव्यम्. अद्यतन प्रपञ्चे पठ्यं वयं पठामः, किन्तु तस्मिन् काले श्रव्यमेव आसीत्, श्रवणम् अथवा दर्शनं. पठनं तु बहु न्यूनमासीत्. सो अतः श्रव्यकाव्यानि इति उच्यन्ते. तत्र श्रव्यकाव्यं त्रिविधं भवति. स्वरूपम् आश्रित्य गद्यं पद्यं चम्पूः इति श्रव्यकाव्ये प्रभेदत्रयम्. सो पद्यं वृत्तबद्धं पद्यं, सो पद्यं तद्भवति यत् वृत्तबद्धं. सो वृत्तम् इति अक्षराणां नियमः, वाट् वी काल् आल्सो एस् छन्दस्, छन्दोबद्धं पद्यं. सो वृत्तानि सन्ति, वी हाव् डिफरेण्ट् मीटर्स्. सो वृत्तम् इति अक्षराणां क्रमः कथं भवति, तत्र अक्षराणि लघु गुरु इति भिद्यन्ते. सो तेषाम् अनु क्रमः कथं भवति, वाट् इस् द अरेञ्ज्मेण्ट् आफ् लेटर्स्. अनेन कारणेनैव पद्यानां रागः इव भवति. सो इफ् यु हाव् अ पर्टिक्युलर् छन्दस्, यु केन् ईज़िलि ऐडेण्टिफै इट् जस्ट् बै द रिदम् आफ् द पद्य. एते सत्पुरुषाः परार्थघटका स्वार्थान् परित्यज्य ये तु स्व सामान्यास्तु परार्थमुद्यमभृतस्वार्थविरोधेन ये तेमीमानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तु घ्रन्ति निरर्थकं परहितं ते केन जानीमहे. सो अत्र चत्वारः भागाः भवन्ति, ईक्वल् पार्ट्स्. प्रतिभागम् अक्षराणाम् आनुपूर्वी समानरीत्या भवति. सो देर् इस् अ स्पेसिफिक् अरेञ्ज्मेण्ट्, स्पेसिफिक् नम्बर् आफ् लेटर्स् इन् अ पर्टिक्युलर् आर्डर्. सो अन्यत् श्लोकं पश्यामः चेत् तद्भिन्नं भवति. अतः तादृशं वृत्तं यत्र भवति, वृत्तस्य बन्धः यत्र भवति, तत् पद्यकाव्यं भवति. यत्र वृत्तबन्धः नास्ति तादृशं गद्यं. सो दट् विच् डस् नाट् हेव् एनी मीटर् इस् काल्ड् गद्य. गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते. यत्र गद्यस्य पद्यस्य च मिश्रणं भवति तादृशं काव्यं चम्पूकाव्यम् इति कथ्यते. एवं श्रव्यकाव्ये गद्यकाव्यं पद्यकाव्यं चम्पूकाव्यम् इति प्रभेदत्रयं भवति. तत्र पद्यकाव्यं पश्यामः. पद्यकाव्ये पुनः त्रयः प्रभेदाः सन्ति, महाकाव्यं खण्डकाव्यं मुक्तकम् इति प्रभेदत्रयं भवति पद्यकाव्ये. तत्र पृथक् पृथक् लक्षणानि सन्ति. सो मुक्तकम् इत्युक्ते एक एव श्लोकः, यथा सर्वमपि सुभाषितं. सो मुक्तकं मुक्तकं मुक्तामणिः, अ पर्ल्. सो स्वतन्त्रतया यस्य अर्थः अवगन्तुं शक्यते. सो काव्ये स्यात्, कुत्रचित् काव्ये सः श्लोकः स्यात् अथवा स्वतन्त्रः स्यात्, तस्य अवगमनं स्वतन्त्ररूपेण कर्तुं शक्यते. दट् डस् नाट् रिक्वैर् अ काण्टेक्स्ट्. सो ईच् वर्ड् केन् बि अण्डर्स्टुड् इण्डिविजुवलि. तादृशं काव्यं मुक्तकम् इति कथ्यते. तत्र खण्डकाव्यम् इत्युक्ते लघुकाव्यं. सो महाकाव्यं तु बृहत् काव्यं. महाकाव्यस्य खण्डकाव्यस्य लक्षणानि सन्ति, देर् आर् स्पेसिफिक् क्यारेक्टरिस्टिक् फीचर्स्. महाकाव्यं चेत् किं भवेत्, सर्गबन्धो महाकाव्यम् इत्यादि बहूनि लक्षणानि सन्ति. खण्डकाव्यस्यापि लक्षणानि सन्ति, तद्विषये इदानीं न गच्छामः. सामान्यतः महाकाव्यम् इत्यत्र तत् काव्यम् अपि महति महत् भवति, महतां काव्यं महतां विषये अपि भवति, तत् महाकाव्यं. यत्र काव्यसौन्दर्यमपि बहु अधिकं भवति, एवं तत्र पात्राणि अपि महान्ति भवन्ति. अबौट् ग्रेट् पीपल्, अ ग्रेट् पोयम् अबौट् ग्रेट् पीपल्, तदेव महाकाव्यम् इति कथ्यते. एतेषां लक्षणम् अथवा अग्रे अग्रिमस्तरेषु जानीमः. एतत्तु सामान्यपरिचयार्थम् उक्तं. तत्र महाकाव्यम् इति यदा स्वीकुर्मः, पञ्च महाकाव्यानि प्रसिद्धानि सन्ति. महाकाव्यानि शतशः सन्ति, तत्र सन्देहः नास्ति. संस्कृते महाकाव्यम् इति बहूनि सन्ति किन्तु पञ्च काव्यानि महाकाव्यानि इति अङ्गीक्रियन्ते कालिदासस्य रघुवंश महाकाव्यं कुमारसम्भवं सो रघुवंशं कुमारसम्भवम् इति द्वयमपि कालिदासविरचितं महाकाव्यं किरातार्जुनीयम् इति काव्यमस्ति भारवेः शिशुपालवधं माघस्य नैषधीयचरितं श्रीहर्षस्य सो एतानि पञ्च महाकाव्यानि इति अङ्गीक्रियन्ते रघुवंशं कुमारसम्भवं किरातार्जुनीयं शिशुपालवधं नैषधीयचरितम् एतेषां वस्तुतः महत्त्वं किम् इति काव्यस्य अध्ययनेनैव ज्ञायते सो पञ्च अपि अत्यन्तं सुन्दराणि महान्ति काव्यानि तत्र अधुना शिशुपालवधस्य कथा संक्षेपरूपेण दीयते शिक्षास्तरे शिशुपालवधं विंशति सर्गात्मकं काव्यं सो विंशतिः सर्गाः सो महाकाव्ये एकैकः अध्यायः चाप्टर् इत्यादि यत् क्रियते सः भागः सर्गः इति कथ्यते सो विंशतिः सर्गाः सन्ति शिशुपालवधे प्रायः सहस्रोत्तरम् अष्टशतं श्लोकाः काव्ये सन्ति एतेषु सर्गेषु 1800 वर्सस् इन् द काव्यं कथा शीर्षकेणैव ज्ञायते शिशुपालस्य वधः श्रीकृष्णेन क्रियते सो तदेव काव्यस्य वस्तु नायकः श्रीकृष्णः सो शिशुपालवधस्य कर्ता माघः महाकविः माघः शिशुपालवधस्य कर्ता सः माघः प्रायः सामान्यशकस्य सप्तमे अष्टमे वा शतके द सेवेन्थ् और् एय्त् सेञ्चुरी कामन् एरा सो इतः प्रायः द्वादशशतं वर्षेभ्यः पूर्वम् आसीत् गुजरात् राजस्थान प्रदेशे तस्य जननं तस्य वासः तत्र माघस्य बहुधा श्लाघनं क्रियते तत्र एकः प्रसिद्धः श्लोकः अस्ति उपमा कालिदासस्य भारवेरर्थगौरवं दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः सो कालिदासस्य उपमालङ्कारः अत्यन्तं प्रसिद्धः कालिदासः बहु सुन्दररीत्या उपमाः लिखति भारवेः अर्थगौरवं महाकविः भारविः तस्य अर्थगौरवेण प्रसिद्धः So his emphasis on depth of meaning. Dandinah padalalityam. Dandi iti kaschit kavihi. Gadya kavyani likhitava. Dashakumara charitam avanti sundari katha iti. Tasya padalalityam. Bahu sundararitya shabda sanyojanam karoti. Iti tesham kavinam vaishishtyam varnyate. Maghe santi trayogunaha. उपमा अर्थगौरवं पदलालित्यम् इति त्रयः अपि गुणाः माघे सन्ति इति वदन्ति नवसर्गगते माघे नवशब्दो न विद्यते माघकाव्यस्य नवसर्गान् पठन्ति चेत् नूतनः शब्दः एव न भवति इति उच्यते अतिशयोक्तिः स्यात् बट् द एक्स्टेण्ट् आफ् वोकाबुलरी सो माघक शिशुपालवधस्य आदौ नव सर्गान् पठन्ति चेत् ततः परं नूतनः इति शब्दः एव न भवति सर्वविधानपि शब्दान् सः प्रयुक्तवान् अस्ति इति तस्य शब्दसम्पत्तिविषये उच्यते माघे मेघे गतं वयः इति एकं वाक्यं तत्र अर्थद्वयं भवति सामान्यः अर्थः कः माघे नाम माघमासे माघमासः फेब्रवरी मार्च् मध्ये भवति माघः फाल्गुनः इति एकादशः मासः चैत्रः वैशाखः इति यदा मासगणनां कुर्मः सो वर्षस्य अन्ते भवति. सो माघमासे मेघे मेघस्य मध्ये वयः वयः इत्युक्ते पक्षी इत्यर्थः, पक्षी गतः इति सामान्यः अर्थः. माघकाले आकाशे मेघस्य मध्ये कश्चित् पक्षी गतः इति अर्थः, किन्तु वस्तुतः विवक्षितः अर्थः माघे मेघे. माघं नाम माघस्य काव्यं शिशुपालवधं, मेघे मेघः इति मेघदूतं कालिदासस्य प्रसिद्धं खण्डकाव्यं. सो माघे मेघे गतं वयः, आयुः एव गतं. तयोः द्वयोः काव्ययोः अध्ययनेन जीवनं यापयितुं शक्यते इति उक्तिः. सो तावत् सुन्दरं महाकाव्यमस्ति शिशुपालवधम् इति. सो तस्य कथाम् इदानीं पठामः. ततः पूर्वं केऽपि प्रश्नाः सन्ति चेत् पृच्छन्तु.
पद्य प्रश्नयोर्मध्ये भेदः कः? श्लोकं सोरि, पद्यश्लोकयोर्मध्ये भेदः कः?
भेदः इति नास्ति, वस्तुतः श्लोकशब्दः वृत्तविशेषः. तत्र सामान्यतः अनुष्टुप् इति छन्दः भवति, तस्य एकः प्रभेदः श्लोकः. शास्त्रदृष्ट्या तस्यैव श्लोकः इति नाम, किन्तु इदानीं व्यवहारे सर्वाण्यपि पद्यानि इण्डिविजुवल् पद्यास् आर् काल्ड् श्लोकास्. सो श्लोकशब्देन व्यवहारः अस्ति, यद्यपि इनिशियलि सो वस्तुतः रामायणस्य कथां पश्यामः यत्र आदिकविः वाल्मीकिः श्लोकं रचयति तत्र शोकश्लोकत्वमागतः इत्यस्ति, तस्य शोकः एव श्लोकरूपं प्राप्नोत् इति. तत्र अनुष्टुप् छन्दसः कश्चित् भेदः, स्पेसिफिक् टैप् आफ् अनुष्टुप्, द मोस्ट् कामन् टैप् आफ् अनुष्टुप् ईस् टेक्निकलि काल्ड् श्लोक. किन्तु एषु दिने व्यवहारे वृत्तनिबद्धानि सर्वाण्यपि श्लोकः इति कथ्यन्ते. किन्तु काव्यस्य विषये यदा वदामः तदा श्लोकः इति न वदामः. श्लोकः इत्युक्ते इट्स् एन् इण्डिविजुवल् यूनिट्. पद्यम् इति तु काव्यं. सो द एण्टैर् सेट् इदानीं शिशुपालवधम् इति पद्यकाव्यम् इति उच्यते. महेश्वरी
प्रश्नः नास्ति भगिनि.
अद्य अन्ये केचित् प्रश्नाः सन्ति. रामायणं महाभारतम् अस्मिन् विभागे कुत्र अन्तर्भवन्ति इति. वस्तुतः अयं विभागः आस्थानकाव्यानाम् इत्येव. तत्र काव्यानि यथा रामायणं महाभारतं पुराणानि, तानि सर्वाणि ऋषिभिः प्रणीतानि. सो इतिहासः पुराणम् इति कथ्यन्ते. रामायणं महाभारतं च इतिहासशब्देन कथ्यते, पुराणशब्देन. सो एतत् अनालिसिस् यत् क्रियते तत्तु आस्थानकाव्यानां स्पेसिफिक् युनो कोर्ट्लि लिटररी एक्टिविटि तस्य क्रियते. तथापि सामान्य अतः एतत् लक्षणं महाकाव्यस्य यत् स्पेसिफिक् लक्षणं उक्तं सर्वमपि न स्यात्, किन्तु यदि अन्तर्भावनीयं तर्हि रामायणं महाभारतं च महाकाव्यम् इत्येव वक्तव्यं. किन्तु अयं विभागः तादृशानां न. इट् इस् नाट् फार् द रामायण महाभारत पुराण, दे आर् बियाण्ड् दिस् क्लासिफिकेशन्. दे आर् नाट् कन्सिडर्ड् एस् यु नो लिटररी वर्क्. इट् हेस् समथिङ्ग् मच् मोर् टु इट्, रैट्? सो ऋषिप्रणीतानि तानि इतिहासत्वेन पुराणत्वेन परिगण्यन्ते, न तु काव्यत्व. तथापि पद्यकाव्यमेव, तत्र सन्देहः नास्ति, पद्यकाव्यं. तत्रापि महाकाव्यं, सो मुक्तकं न, खण्डकाव्यं न, अतः महाकाव्यमेव. किन्तु महाकाव्यस्य सामान्यतः किमुच्यते विंशति पञ्चविंशति सर्गाः भवन्ति इति. वाल्मीकिरामायणे तु पञ्चशतं सर्गाः सन्ति. सो इन् वाल्यूम् आर् इन् देर् महत्वं दे आर् नाट् इवन् कम्पेरबल् टु दीस् महाकाव्यस्. ऐ मीन् दे आर् मच् मच् मोर् तेषां महत्वं बहु अधिकमेव, अतः अत्र न भवति. तथापि सामान्यदृष्ट्या महाकाव्यम् कुत्रचित् वाल्मीकीये महाकाव्ये श्रीमद् रामायणे इत्यपि कुत्रचित् दीयते.
अर्थगौरवं नाम तत्र उपमा कालिदासस्य इत्यस्मिन् श्लोके अर्थगौरवम् इति एकं पदम् अस्ति, तस्य अर्थः
गौरवं हेवीनेस् वेट् आफ् वर्ड्स्. सो केवलं सामान्यतः पदस्य प्रयोगः न क्रियते भारविना, तत्र सः एकं पदं वदति चेत् तत्र बहवः अर्थाः भवन्ति. अर्थस्य गाम्भीर्यं डेप्त् आफ् मीनिङ्ग् वेट् आफ् मीनिङ्ग् इत्यर्थः.
फिलोसफि
फिलोसफि इत्येवं न, तत् यदा किरातार्जुनीयं पठ्यते तदा ज्ञायते सः एकं वदति चेत् तत्र बहुविधाः अर्थाः भवन्ति. सो देर् आर् सेवरल् लेयर्स् आफ् मीनिङ्ग् दट् यु केन् गेट्.
अपि च भगवद्गीता काव्यमिति वक्तुं शक्यते किम्?
भगवद्गीता तु महाभारतस्य एकः भागः. सो महाभारतं तदेव इदानीमेव उक्तं. सो तेषां काव्यत्वेन व्यवहारः नास्ति. सो किन्तु तस्य स्वरूपं तु पद्यकाव्यमेव, श्लोकरूपं काव्यं तदस्ति सामान्यस्वरूपं. किन्तु काव्यम् इति तस्य व्यवहारः तु नास्ति. अग्रे गच्छामः. शिशुपालवधस्य कथा अस्ति, गद्यरूपेण सन्ति, वाक्यखण्डाः सन्ति, सरलानि एव वाक्यानि सन्ति. तथापि वयं कथं कुर्मः, सर्वेपि पठन्तु, इत्युक्ते ये पठितुमिच्छन्ति एकं वाक्यखण्डं पठन्तु. सो अहम् एकं कथयामि अत्र अस्मिन् अभ्यासे प्रतिपदं ज्ञातुं प्रयत्नं कुर्वन्तु. भाषायाः अवगमनं बहुषु स्तरेषु भवति. कदाचित् किं भवति, पूर्णस्य वाक्यस्य अर्थः अवगम्यते, प्रसङ्गमाश्रित्य वाक्यस्य अर्थः अवगम्यते, स एव प्रारम्भिकस्तरः. सो यु अण्डर्स्टाण्ड् द मीनिङ्ग् वाट् इट् मीन्स् रफ्लि, सो द काण्टेक्स्चुयल् मीनिङ्ग् आर् द रफ् मीनिङ्ग्. किन्तु ततः अग्रे गमने पदशः अर्थः अवगन्तव्यः. सो यु शुड् बि एबल् टु अण्डर्स्टाण्ड् एव्रि वर्ड्. अत्र शिक्षास्तरे ये काव्यकथा यद्दीयते तत्र प्रत्येकं पदस्य अवगमनं शक्यं भवेत्, तदा एव अग्रे एतानि महाकाव्यानि मूलरूपे पठितुं शक्यन्ते. सो दिस् इस् अ वेरि हैलि सिम्प्लिफैड् वर्षन्. अतः अत्र प्रतिपदम् अवगन्तुं प्रयत्नं कुर्वन्तु. यदि किमपि पदं न ज्ञायते तदा पृच्छन्तु. वयम् एकैकशः पठामः, यदि कुत्रापि अवगमनं न भवति तदा पृच्छन्तु. सो द अटेम्प्ट् बै यू शुड् बी टु अण्डर्स्टाण्ड् एव्रि वर्ड्. प्रतिपदम् अर्थः यदि शक्यते, प्रतिपदं विभक्तिः व्याकरणांशः अपि ज्ञातुं शक्यते यथा वयं सुभाषितेषु कुर्मः तथा. वर्गे इदानीं तत् व्याकरणस्य अनालिसिस् न कुर्मः, किन्तु तदपि कर्तुं प्रभवन्ति चेत् एतेषु सरलगद्यभागेषु यदि तावत् गाम्भीर्यं सम्पाद्यते तदा अग्रिम स्तरे सुलभं भवति. वस्तुतः मूलकाव्यानाम् अध्ययनं सरलं भवति. अस्तु, इदानीम् एकैकशः पठामः. कृपया हस्तम् उन्नयन्तु ये पठितुम् इच्छन्ति. So we will each take one short paragraph and read it. So यदि सन्देहः अस्ति वदन्तु. स्वयं प्रभा, you have to unmute yourself. सो अयं प्रथमः भागः नारदस्य आगमनम् इति शीर्षकं. सो नारदस्य आगमनं, नारदः द्वारकाम् आगच्छति. पठतु.
शिशुपालस्य वधः न काव्यकथा इन् द फिफ्थ्
अस्ति किल, स्क्रीन् न दृश्यते वा?
अहं जस्ट् स्क्रीन् ऐ जस्ट् रीड् द स्क्रीन् दट्स् वाट् इट् इस्
यस्
भगवान् श्रीविष्णुः लोकरक्षणाय कृष्णावतारं गृहीतवान् सः वासुदेवस्य पुत्रो जातः द्वारकायाश्च नृपः अभवत्
भगवान् श्रीविष्णुः लोकरक्षणाय लोकानां रक्षणं लोकरक्षणं तदर्थं तु प्रपञ्चस्य पालनं कर्तुं कृष्णावतारं गृहीतवान् कृष्णरूपेण अवतारं स्वीकृतवान् सः वसुदेवस्य पुत्रो जातः पुत्रः जातः सो मृदुव्यञ्जने परे उकारः भवति पुत्रो जातः सो वसुदेवस्य पुत्ररूपेण जातः जन्म प्राप्तवान् द्वारकायाः च सो सकारः भवति द्वारकायाश्च ततः श्चुत्वं भवति द्वारकायाश्च नृपः अभवत् नृपः इत्युक्ते राजा महाराजः सो द्वारकायाः महाराजः अभवत् सो कृष्णः भूमौ अवतीर्य वसुदेवस्य पुत्ररूपेण अवतीर्य द्वारकायाः राजा अभूत् इत्यर्थः सो इतः कथा आरभ्यते शिशुपालवधस्य कथा कृष्णः द्वारकायाम् अस्ति राजा अस्ति ततः एव शिशुपालवधस्य कथा आरभ्यते शैलजा
नमो नमः कदाचित् श्रीकृष्णं द्रष्टुं नारदमहर्षिः द्वारकाम् आगतवान् कृष्णः नारदं पूजितवान् योगक्षेमं च अपृच्छत्
कदाचित् इत्युक्ते
यदा कदापि
कदापि यथा दृष्टं कश्चित् कश्चन सो कदाचित् कदाचन सो अन्सर्टेन्टि सो श्रीकृष्णं द्रष्टुं नारदमहर्षिः द्वारकाम् आगतवान् कृष्णः नारदं पूजितवान् योगक्षेमम् अपृच्छत् योगक्षेमम् इत्युक्ते किं
कुशलम्
अपृच्छत् इति सामान्यः अर्थः सो सामान्यतः योगः इत्युक्ते अप्राप्तस्य प्राप्तिः यत् न लब्धमस्ति तः योगः क्षेमम् इत्युक्ते प्राप्तस्य रक्षणं सो अत एव योगक्षेमं वहाम्यहम् इति यदा कृष्णः कथयति सो यत् प्राप्तव्यं तस्य प्राप्तिः प्राप्तस्य रक्षणम् उभयम् अहं करोमि इत्यर्थः अत्र तु सामान्यतः योगक्षेमम् अपृच्छत् इत्युक्ते कुशलं पृष्टवान् कुशलप्रश्नं कृतवान् इत्येव अर्थः नारदमहर्षिः इत्युक्ते नारदः एव वा आम् नारदः महर्षिः सो महर्षिः इति नारदस्य विशेषणं तावदेव सो नारदः महर्षिः नारदमहर्षिः नारदः एव महर्षिः नारदः आगतवान् इत्यर्थः सो यथा मया उक्तं कृपया कुत्रापि सन्देहः अस्ति चेत् पृच्छन्तु बहु सरलम् अस्ति किन्तु सन्देहः अस्ति चेत् दोषः नास्ति सो प्लीस् डोण्ट् फील् एम्बरस्ड् आर् डिफिडेण्ट् टु आस्क् क्वश्चन् ईवन् इफ् दे आर् सिम्पल् आर् नो इट् मे सीम् सिल्लि यतोहि ज्ञानमेव मुख्यम् अत्र कः किं चिन्तयति इत्यस्य चिन्तनं कुर्मः चेत् अस्माकं ज्ञानवृद्धिः न भवति अतः अत्र लज्जायाः विषयः एव नास्ति कोऽपि विषयः यदि नावगम्यते तर्हि पृच्छन्तु
श्रूयते वा?
आ श्रूयते.
नारदमुनिः एवम् उक्तवान्, कृष्ण भवान् सर्वं जानाति, सर्वज्ञो हि भवान्, तथापि देवेन्द्रस्य सन्देशं गृहीत्वा आगतोऽस्मि, कृपया श्रूयताम् इति. किं करणीयम्?
सर्वम् अवगम्यते. सो नारदमुनिः एवम् उक्तवान्, भवान् सर्वं जानाति, सर्वज्ञः. सर्वज्ञः इत्युक्ते
सर्वं जानाति इति.
सर्वं जानाति इति सर्वज्ञः, तस्यैव. सर्वज्ञो हि भवान्, सो यः सर्वं जानाति सः सर्वज्ञः. अतः कृष्णः सर्वं जानाति, तथापि देवेन्द्रस्य सन्देशं गृहीत्वा आगतः अस्मि, आगतोऽस्मि, विसर्गस्य उकारादेशः. सो देवेन्द्रः कञ्चित् सन्देशं प्रेषितवान्, तत् मया आनीतम् इति नारदः कृष्णं कथयति. कृपया श्रूयताम्. सो श्रूयताम् इति कर्मणि प्रयोगः, वस्तुतः अत्र भावे प्रयोगः. एषः प्रयोगः संस्कृते बहु सुन्दरः भवति. ओके, सो वयम् एषु दिनेषु किं कुर्मः, सामान्यतः कर्तरिप्रयोगः एव क्रियते अस्माभिः, शृणोतु, आगच्छतु, उपविशतु इत्यादि. किन्तु संस्कृतकाव्यानि पश्यामः चेत् श्रूयताम् इत्युक्ते श्रवणं भवतु इत्यर्थः. सो साक्षात् कर्तुः निर्देशः नास्ति, भावे आस्यताम्, उपविशतु इत्यर्थे आस्यताम् इत्युच्यते, एवं क्रियताम् इत्यादि भावे प्रयोगः उपयुज्यते. सो कृपया श्रूयताम् इत्यस्य शृणोतु इत्यर्थः, भवान् मम वचनं शृणोतु इति. सो तस्य भावे प्रयोगे श्रूयताम् इति भवति. सन्देशः इत्यस्य कः अर्थः? सन्देशः मेसेज् इत्यर्थः. अग्रे गच्छामः. रमा गुरुराजन्.
हिरण्यकशिपुर् नाम दैत्यो लोकान् पीडयति स्म, अखिलोऽपि लोकः तस्मात् भीतः. तदा भवान् नरसिंहावतारं गृहीत्वा तं राक्षसं सतैः चित्वा हतवान्.
एतत् सर्वं देवेन्द्रः कृष्णं कथयति इति नारदः वदति. किं वदति? इन्द्रस्य सन्देशं पठति नारदः, पठति अथवा कथयति, पठति इति न. इन्द्रस्य कः सन्देशः? इन्द्रः कृष्णं प्रति वदति. किं वदति? पुरा, पुरा पूर्वकाले हिरण्यकशिपुः नाम, हिरण्यकशिपुर्नाम, सो विसर्गस्य रेफः. सो हिरण्यकशिपुर्नाम दैत्यः लोकान्, दैत्यो लोकान्. सो अह इत्यस्ति मृदुव्यञ्जनम्, अतः उकारः. सो हिरण्यकशिपुः नाम दैत्यः. सो दैत्यः दितेः पुत्रः दैत्यः. कश्यपः इति प्रजापतिः आसीत्, तस्य कश्यपस्य अदितिः, दितिः, दनुः इति पत्न्यः बह्व्यः आसन्. अदितेः पुत्राः आदित्याः, देवाः. दितेः पुत्राः दैत्याः, असुराः. स्वमरकोशे अपि असुरा, दैत्य, दैतेय, धनुज, इन्द्रादि दानवाः इत्यस्ति. सो असुरः इत्यर्थः. सो हिरण्यकशिपुनामकः असुरः लोकान् पीडयति स्म. लोकशब्दस्य प्रपञ्चः इत्यपि अर्थः अस्ति, जनाः इत्यपि अर्थः अस्ति. सो जनान् पीडयति स्म, अथवा चतुर्दश लोकाः भुवनानि सन्ति, सर्वाण्यपि पीडयति स्म. सो अखिलोऽपि लोकः तस्मात् भीतः. सो अखिलः, सर्वः, सम्पूर्णः लोकः, प्रपञ्चः तस्मात् भीतः. कस्मात्? हिरण्यकशिपोः भीतः. सो भीतिः इति शब्दः यदा भवति तदा पञ्चमी विभक्तिः उपयुज्यते. व्याघ्रात् भीतः, चोरात् भीतः, सो तस्मात् हिरण्यकशिपोः भीतः भयं प्राप्तवान्। तदा भवान् भवान् श्रीकृष्णः नरसिंहावतारं गृहीत्वा तं राक्षसं नखैः छित्त्वा, छेदनं टु टेर्, सो नखैः नखः करोरुहः नेल्स्, सो नखैः छित्त्वा हतवान् मारितवान्। अग्रे कल्याणकृष्ण,
थैंक यू। मृतः हिरण्यकशिपुः जन्मांतरे रावणो जातः, पुनरपि जनान् मुनीं च पीडयितुम् आरब्धवान्। भवान् अपि पुनः दशरथस्य पुत्रः श्रीरामो भूत्वा सीतापहारकं तं हतवान्।
सो मृतः हिरण्यकशिपुः नरसिंहेण सह मारितः जन्मान्तरे, जन्मान्तरं नाम किम्?
The next life?
अन्यत् जन्म, जन्मान्तरं, सो देशान्तरम्, अन्यः देशः देशान्तरम्, अन्या भाषा भाषान्तरम्, सो अन्यत् जन्म, सो अग्रिमजन्मनि रावणः जातः, सो रावणरूपेण हिरण्यकशिपुः एव पुनः जन्म प्राप्तवान्। पुनरपि जनान् मुनीन् च पीडयितुम् आरब्धवान्। भवानपि, सो भवान् कृष्णः पुनः दशरथस्य पुत्रः श्रीरामः भूत्वा, सो रामावतारं स्वीकृत्य सीतापहारकं, सीतायाः अपहारकः, सीतापहारकः, सो सीतापहारकं तं कं?
रावणं।
रावणं हतवान्। सो तत्रापि श्रीरामरूपेण भवान् तस्य हननं कृतवान्। रामकृष्णराव,
यथा लोके नटः अन्यं वेषं धृत्वा रङ्गभूमिम् आगच्छति, तथा स राक्षसः इदानीं शिशुपाल इति नाम्ना उत्पन्नः। तस्य दौर्जन्यम् असहनीयम्, जनाः दुःखिताः सन्ति।
ततः पूर्वम् एकः प्रश्नः, अपहारकः इत्युक्ते किम्? यः अपहरणं करोति सः अपहारकः, पचति पाचकः, अपहरति सो सः अपहारकः, चोरः इत्यर्थः। सो यथा लोके नटः अन्यं वेषं धृत्वा, क्षम्यताम्, नटः अन्यं वेषं धृत्वा रङ्गभूमिम् आगच्छति, एतद् उदाहरणं ददाति। कदाचित् नाटकेषु एकः एव नटः भिन्नं पात्रं वहति, इदानीं कश्चित् बालः भवति, अनन्तरं गत्वा किञ्चित् वस्त्रं परिवर्त्य अन्यरूपेण स एव आगच्छति। सो नटः नटति, एक्टर्, अन्यं वेषं धृत्वा रङ्गभूमिः, रङ्गभूमिः स्टेज्, सो रङ्गभूमिम् आगच्छति, तथा स राक्षसः, सः राक्षसः, एषः सः, एतयोः अकारं विहाय अन्य सर्वेषु वर्णेषु परे लोपः भवति विसर्गस्य, दृष्टं स राक्षसः इदानीं शिशुपाल इति नाम्ना उत्पन्नः। सो प्रथमे जन्मनि हिरण्यकशिपुः आसीत्, द्वितीये जन्मनि रावणः, अधुना शिशुपालः, शिशुपाल इति नाम्ना उत्पन्नः जातः। सो तस्य दौर्जन्यं कः अर्थः? दुष्टता, दुर्जनस्य भावः दौर्जन्यम्. सो दौर्जन्यं सः दुष्टकार्याणि बहूनि करोति. सो तस्य दौर्जन्यं, सो दुष्टस्वभावः असहनीयं, सोढुम् अशक्यं, सो इन्टालरबल्. सहनीयम् इत्युक्ते सहन शक्यते, न सहनीयं, सोढुमेव न शक्यते. बहवः तेन पीडिताः जनाः दुःखिताः सन्ति. सो तेन पीड्यमानाः जनाः बहु दुःखम् अनुभवन्ति. पद्मनाभन्
पूर्वं यथा भवान् राक्षससंहारं कृत्वा लोकोपकारं कृतवान् तथा इदानीं शिशुपालस्य वधं करोतु इति इन्द्रसन्देशं नारदः श्रावितवान्. पूर्वं पूर्वं यथा भवान् राक्षससंहारं कृत्वा राक्षसस्य संहारं पूर्वं पूर्व अवतारे राक्षससंहारं कृतवान्
कश्चित् आसीत् तथा यदा रावणः आसीत्
यथा कृत्वा तदनन्तरं तेनैव कार्येण लोकस्य उपकारं कृतवान् तथैव इदानीमपि शिशुपालस्य वधं करोतु इति इन्द्रसन्देशं इन्द्रस्य
सन्देशः
नारदः श्रावितवान् नारदः श्रावितवान् नाट् इट्स् प्रोबब्लि सम् निच् प्रत्यय
शृणोति श्रावयति टु
श्रावयति विच् टु निच् तवत्
निच् निजन्तात् कृतवत्. सो पठति पाठितवान् शृणोति श्रावितवान्. सो हि मेड् कृष्ण हियर् द मेसेज्. सो हि कन्वेड् द मेसेज् इत्यर्थः. सो श्रावितवान् इति निजन्तम्. सो प्रेरणार्थक निजन्तः कासल् वर्ब् इत्यस्य निजन्तः इति कथ्यते, प्रेरणार्थकः इत्यपि कथ्यते. सो कृष्णः श्रुतवान्, नारदः श्रावितवान्. सो मेड् कृष्ण लिसन् टु द सन्देश, इन्द्रस्य सन्देशः कृष्णेन श्रुतः. अग्रे राजेश्वरी you have to unmute yourself. Okay, Rajeshwari.
Shri Krishna Naradasya Vachanam Shrutva Tadastu Ityangi Kritavan Sandoshena Narada Maharishi Dwaraka Nagarat Nivritavan. Shri Krishnasya Naradasya Vachanam, he heard Narada Vachanam, then he said, oh, yes.
अङ्गीकृतवान्.
हि अक्सेप्टेड् इट्
सन्तोषेण
नारद महर्षि हि वेण्ट् फ्रम् नारद द्वारका
द्वारकानगरात् निवृत्तवान् इत्यर्थः. सो निवर्तते इस् टु गो बेक्.
थैंक यू.
धन्यवादः. सो नारदः सन्देशम् उक्तवान्. किम् उक्तवान्? कः सन्देशः? शिशुपालस्य वधं करोतु इति उक्तवान् कृष्णः अङ्गीकृतवान् सो अङ्गीकरोति टु एक्सेप्ट् अस्तु इति कथनमेव अङ्गीकारः सो नारदमहर्षिः द्वारकानगरात् निवृत्तवान् प्रतिगतः इति सो अत्र समाप्यते सो प्रश्नाः सन्ति चेत् पृच्छन्तु सो श्रावितवान् इत्यस्य वर्तमानकाले श्रावयति सो श्रावयति इति वर्तमानकाले भूतकाले श्रावितवान् इति भवति
अस्य काव्यस्य नाम किं
शिशुपालवधम्
बहूनि अत्र किमुच्यते भूतकाल प्रयोगार्थे अत्र कृदन्ताः कृत्प्रत्ययाः
वस्तुतः काव्यं
दृष्टानि
तत् काव्यस्य संक्षेपरूपमेव काव्यमेव न दिस् इस् नाट् द ओरिजिनल् काव्य काव्यकथा एव शिशुपालवधस्य कथा संक्षेपरूपेण दीयते तावदेव इदं काव्यं न
ओके ओके तदेव तदेव अहं चिन्तयामि ईदृशानि किमुच्यते कृदन्तपदानि कृदन्तपदानि न सुबन्तान्येव परन्तु कृत्प्रत्ययानि सन्ति इति चिन्तयामि अहम्
एतत् मूलकाव्यं न ऐ होप् नोबडि हेस् दट् दिस् वन् एतत् केवलं शिशुपालवधस्य कथायाः सारः इट्स् अ वेरि 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 अब्रिड्ज् वर्षन् आफ् द शिशुपालवध सर्वं नास्त्येव तत्र प्रथमसर्गे शिशुपालवधे प्रायः शतं श्लोकाः सन्ति अत्यन्तम् उत्तमाः श्लोकाः शिशुपालवधस्य अध्ययनं तु पृथक् एतत्तु केवलं कथायाः संक्षेपः अस्मिन् स्तरे कथायाः अवगमनार्थमेव काव्यकथा इत्येव अस्ति न तु काव्यं मूलकाव्यं न सो अन्ये केऽपि प्रश्नाः सन्ति वा
नमस्ते मान्ये सो वी केम् अक्रास् दिस् वर्ड् पुनरपि एण्ड् ऐ हेव् सीन् वेन् ऐ वास् रीडिङ्ग् भजगोविन्दम् इट् इस् स्प्लिट् अस् पुनः अपि पुनरपि जननं पुनरपि मरणं हौ इस् दट् ऐ मीन् दट्स् डिफरेण्ट् फ्रोम् वाट् वी रेड् रैट् बिकास् इट्स् पेण्डिङ्ग् ऐ मीन् विसर्ग प्रिसीडेड् बै अ
Yeah. And the different one, see, the usual, the visarga, when you have a visarga, there are two roots from which you get a visarga, okay, so somebody else also asked this, the usual one is you have the pratyaya, say Rama, so there is a pratyaya called sakara, so the sa becomes, sorry, it is not... here the sa becomes ra and then you get the visarga it is one root
okay
so whereas originally itself there are very few words which originally have a repa which becomes a visarga okay so this is defined technically as what we call ru okay So, the karya, so majority, 99% of the words we see are this, where you originally had a sakara which became ru and then became visarga. So, the sandhi studied the ukara, the lopa, etc., they apply only to these. Okay. So,
okay.
for words which originally have a repha, that sandhi does not apply. So, punar is an avyaya which originally has that repha. It is not derived from sakara. Okay. So, that is why for the word punar, those sandhis do not apply. Okay. So, it's a bit of a thing to know how the word is derived. But it's very rare. Such cases are very rare. So, it has been this one.
Okay. then we need to know what the original word is then, right? But as you say, it's rare. I mean, maybe...
It's very rare. So
okay.
Now, when you see the exceptions, you can know about them. So why, when you wonder, it's probably because of this reason. But it's very, very, very rare to have words originally have this.
Okay.
So Punar is one of the common words.
Uh-huh. Okay. Dhanyavada. Thank you.
Okay. Okay. So let's see. Kenasi ruchyate atra kim shiksha pustakasya etan madhye etan nasti iti. So maya purvatana pustakam asti. Maya vastutaha, I don't have the latest version. Purvam dasha pustakeshu yada vibhaktam asit tatra idam asit. No. Mama samipe yadasti tattu puratanam. So nutana pustakam yesham samipe asti taihi vaktavyam idam astiva nava iti. Na janam. So if somebody can confirm, it will be useful. If this portion is not there in the current version, I don't know. I was under the impression that it is the same thing, which is, I mean, the same 10 books have been combined to form a single version. So, Nutana Pustake Asti Chet Prishtha Sankhyam Kepi Datum Shaknu Antiva. So, page number or some reference in the new book. Page 11 iti vadanti. Nutana pustake ekadasha prishthe asti. So punarapi ityasya vibhagaha katham punaha api punarapi ityeva kriyate. So punarapi, it becomes punaha api. So agre gachamaha tatra kechana prashnaha santi kavya bhagam ashrite idanim yat pathitam tad ashritya kechana prashnaha santi so shri krishnam drashtum kaha agatavan rama guru rajan Shri Krishnam Drashtum Kaha Agatavan. Bhagini? Rama Bhagini?
Narada Rishihi Agatavan.
Narada Maharshihi Agatavan. Shri Krishnam Drashtum Narada Maharshihi Agatavan.
नारदः देवेन्द्रस्य सन्देशं गृहीत्वा आगतवान्
आम् नारदः कस्य सन्देशं गृहीत्वा आगतवान् देवेन्द्रस्य सन्देशं गृहीत्वा आगतवान् रावणः पूर्वजन्मनि कः आसीत्
रावणः पूर्वजन्मनि नरसिंह आसीत्
रावणः नरसिंहः आसीत् वा
यस् रावण पूर्वजन्मी नरसिंहन् आसीत्
कृष्णः एव किल विष्णुः नरसिंहः आसीत् रावणः कः आसीत्
हिरण्यकश्यपः आसीत्
रावणः
रावण पूर्वजन्मानि हिरण्यकश्यपः
आसीत् So, Ravanaha Purvajanmani Hiranyakashipuhu Asit. Kasya Daurjanyam Asahaniyam. Ramakrishna.
Ravanasya Daurjanyam Asahaniyam.
Ravanasya va. Atrakimasti Kutrasti. So, Sarakshataha Idanim Shishupala Iti Namna Utpannaha
तस्य दौर्जन्यम्
शिशुपालस्य दौर्जन्यम् असहनीयम् आसीत्.
इदानीं तन विषये वदति शिशुपालस्य दौर्जन्यम् असहनीयम्. शैलजा शिशुपालस्य वधात् किं भविष्यति?
शिशुपालस्य वधात् लोकोपकारं भविष्यति.
सम्यक्. लोकोपकारः भविष्यति. लोकोपकारं करोतु इति उक्तवान् किन्तु पुल्लिङ्गशब्दः शिशुपालस्य वधात् लोकोपकारः भविष्यति इति प्रथमः भागः कथायाः. सो द्वितीयं भागमपि पठामः. पञ्चनिमेषाः एव सन्ति. सो द्वितीये भागे मन्त्रालोचनं. मन्त्रालोचनं नाम परस्परं मिलित्वा चिन्तनं गुप्तरीत्या विशिष्य चिन्तनं क्रियते तस्य मन्त्रालोचनम् इति नाम. सो इट् इस् अ डिस्कशन् कान्फिडेन्शियल् डिस्कशन् अस्य मन्त्रालोचनम् इति नामधेयं भवति. सो पठामः गायत्री.
यदा नारदमुनिः द्वारकानगरात् निवृत्तवान् तथैव इन्द्रप्रस्थाननगरात् युधिष्ठिरः अन्यं सन्देशं श्रीकृष्णाय प्रेषितवान्. युधिष्ठिरः राजसूययागं कर्तुं सङ्कल्पं कृतवान् आसीत्. यागस्य मध्ये विघ्नो भवति इति धर्मराजः भीतः आसीत्. अतः सः श्रीकृष्णम् आहूतवान्.
सो पूर्वस्मिन् भागे नारदमुनिः द्वारकानगरात् निवृत्तवान्. यदा नारदमुनिः द्वारकानगरात् निवृत्तवान् प्रतिगतवान् नारदः गतः तदैव तदा एव तदैव वृद्धिसन्धिः इन्द्रप्रस्थनगरात्. इन्द्रप्रस्थः इति युधि पाण्डवाः इदानीं तत्र वसन्ति. सो ततः युधिष्ठिरः पाण्डवानां ज्येष्ठः अन्यं सन्देशं श्रीकृष्णाय प्रेषितवान्. इन्द्रः एकं सन्देशं प्रेषितवान्. इदानीं युधिष्ठिरः अन्यं सन्देशं प्रेषितवान्. किमिति? युधिष्ठिरः राजसूययागं कर्तुं सङ्कल्पं निश्चयं कृतवान् आसीत्. राजसूययागः मया करणीयः इति युधिष्ठिरेण निश्चितम्. सो यागस्य मध्ये विघ्नः भवति. विघ्नः ओब्स्टेकल्. सो कश्चिद् आगत्य यागस्य भङ्गं कर्तुं प्रयत्नं कुर्युः इति धर्मराजः भीतः आसीत्. सो धर्मराजः युधिष्ठिरः समानं. सो युधिष्ठिरस्य भयम् आसीत्. अतः सः श्रीकृष्णम् आहूतवान्. सः कृष्णं वदति भवान् कृपया आगत्य यज्ञस्य रक्षणं करोतु इति. अग्रिमः भागः रमा गुरुराजी.
श्रीकृष्णः चिन्तितवान् एकत्र देवकार्यम् अन्यत्र बन्धुकार्यं किं करोमि इति सन्देहः उत्पन्नः. समस्यां परिहर्तुं सः मन्त्रालोचनं कर्तुं निश्चितवान्. ज्ञानवृद्धः उद्भवः उद्भवः अग्रजो बलरामश्च आगतवन्तौ त्रयो मिलित्वा मन्त्रालोचनम् अकुर्वन्. मम पुस्तके मित्रालोचनम् इति दत्तम्.
एवं वा? तत्र तु मन्त्रालोचनम् इत्यस्ति. मित्रालोचनं भवति मित्रैः सह आलोचनम् इति. किन्तु अत्र पूर्वतनपुस्तके अस्ति वस्तुतः शिशुपालवधे मन्त्रालोचनम् इत्येव पदम् उपयुक्तम् अस्ति. श्रीकृष्णः चिन्तितवान्. किं चिन्तितवान्? एकत्र देवकार्यं. देवेन्द्रः एकं कार्यम् उक्तवान् शिशुपालस्य वधं करोतु.
अन्यत्र बन्धुकार्यं युधिष्ठिरः बन्धुः कुन्ती श्रीकृष्णस्य मातुलानि किल अत्ते सो वसुदेवस्य भगिनी अतः बन्धुः युधिष्ठिरः तस्य कार्यं सो किं करोमि इति सन्देहः उत्पन्नः सन्देह उत्पन्नः विसर्गस्य लोपः अग्रे स्वरः अस्ति इति सो संशयः जातः कृष्णस्य इदानीं शिशुपालस्य वधं कर्तव्यं वा राजसूययागस्य रक्षणं कर्तव्यं वा किं करणीयम् इति सो समस्यां परिहर्तुं सो इदानीमेव एकं सुभाषितं दृष्टं नैकश्चार्थान् विचिन्तयेत् सो एकः एव चिन्तनं न कुर्यात् अतः समस्यां परिहर्तुं समस्या अस्ति प्रॉब्लम तस्य परिहारार्थं सः मन्त्रालोचनं कर्तुं निश्चितवान् सो मन्त्रालोचनम् इति गुप्तं चिन्तनं सो कॉन्फिडेंशियल डिस्कशन तत्र एकः पूर्णः सर्गः शिशुपालवदे मन्त्रालोचनस्यैव अस्ति कथं कर्तव्यं तत्र किं किं के के अंशाः ज्ञातव्याः कथं लीक् न भवेत् तथा कथं करणीयम् इत्यादि सर्वं सम्यगस्ति काव्यं सो मन्त्रालोचनं कर्तुं निश्चितवान् कैः सह सः कृष्णः आलोचनं करोति इति चेत् द्वौ उद्धवः बलरामः सो बलरामः अग्रजः अग्रजः बलरामः कृष्णस्य अग्रजः उद्धवः अस्ति सः वयसा कनीयान् किन्तु ज्ञानवृद्धः अत्यन्तं ज्ञानी आसीत् सो ज्ञानवृद्धः उद्धवः अग्रजः बलरामश्च आगतवन्तौ त्रयः मिलित्वा सो कृष्णः बलरामः उद्धवः एते त्रयः मिलित्वा मन्त्रालोचनम् अकुर्वन् परस्परम् आलोचनं कृतवन्तः अग्रे पश्यामः सो उद्धवशब्दस्य व्युत्पत्तिः का इति द्रष्टव्यम् उद्धव इति किमर्थं सः कथ्यते इति उद्धवगीता इत्यपि अस्ति कृष्णः उद्धवाय अपि भगवद्गीतां भिन्नरीत्या गीताम् उपदिशति इति सः तस्य नाम्नः अर्थं पश्यामि परिहर्तुम् इत्यस्य कः अर्थः निवारयितुं समस्यायाः निवारणार्थं टु साल्व् इत्यर्थः सो अग्रे सीता
श्रूयते वा भगिनि
श्रूयते
श्रीकृष्णः नारदमहर्षिः देवेन्द्रस्य सन्देशं गृहीत्वा आगतवान् दुष्टशिशुपालस्य वधं वधः करणीयः इति सूचितवान् युधिष्ठिरो यागाय माम् आहूतवान् तस्य विघ्नभयम् अस्ति एवं कार्यद्वयं सम्प्राप्तम्
सो कृष्णः संक्षेपेण वदति का समस्या इति सो एतद् ज्ञायते नारदः देवेन्द्रस्य सन्देशं गृहीत्वा आगतवान् दुष्टशिशुपालस्य वधः संहारः करणीयः इति सूचितवान् इन्द्रस्य सन्देशे तदेव आसीत् युधिष्ठिरः यागाय माम् आहूतवान् सो यागं कर्तुं मम आह्वानं कृतवान् तत्र यागस्य रक्षणार्थं आहूतवान् तस्य विघ्नभयम् अस्ति यागे कश्चित् विघ्नः भवेत् इति भीतिः अस्ति एवं कार्यद्वयं सम्प्राप्तं सो समाने काले मया कार्यद्वयं करणीयम् अस्ति अविनाश वैद्य
धर्मराजस्य अनुजाः वीराः शूराश्च
तस्मात् धर्मराजः तेषां सहायेन यागं करोति शिशुपालस्तु दुष्टो दिने दिने वर्धते नीतिकारः वदन्ति व्याधिः वर्धमान शत्रुः च निपोक्षणीयौ
नोपेक्षणीयौ
नोपेक्षणीयौ इति अयं मम अभिप्रायः अत्र युक्तायुक्तं विचार्य कथयन्तु इति उक्तवान्
एतदपि कृष्णः एव वदति धर्मराजस्य अनुजाः भीमः अर्जुनः नकुलः सहदेवः ते सर्वेपि वीराः शूराः च तस्मात् धर्मराजः तेषां साहाय्येन यागं करोति धर्मराजस्य सन्ति यज्ञस्य रक्षणार्थं भीमादयः सन्ति अतः तेषां साहाय्येन यागं धर्मराजः करोति किन्तु शिशुपालः तु दुष्टः दिने दिने वर्धते प्रतिदिनं तस्य पीडा लोकानाम् अपकारः अधिकः जायते नीतिकाराः वदन्ति नीतिकाराः नीतिः अस्ति किल विदुरनीतिः चाणक्यनीतिः इत्यादि सो ये युक्तायुक्तं जानन्ति ते वदन्ति किं वदन्ति व्याधिः वर्धमानः शत्रुः च न उपेक्षणीयौ व्याधिः रोगः वर्धमानः शत्रुः सो अ ग्रोयिङ्ग् एनिमि न उपेक्षणीयौ उपेक्षा अनादरः इग्नोरिङ्ग् सो यु शुड् नाट् इग्नोर् अ डिसीज् एण्ड् अ ग्रोयिङ्ग् एनिमि इति नीतिकाराः वदन्ति इदानीं कार्यद्वयमस्ति एकं कार्यं मया विना अपि भवति अहं न गच्छामि चेदपि युधिष्ठिरः अनुजानां साहाय्येन यागं करोति किन्तु शिशुपालः दुष्टः मां विना कोऽपि तस्य वधं कर्तुं न शक्नोति अयं मम अभिप्रायः अतः शिशुपालस्य वधार्थमेव गन्तव्यम् इति अहं चिन्तयामि अत्र युक्तायुक्तं विचार्य कथयन्तु एषः मम अभिप्रायः किन्तु निश्चयः न कृतः अत एव किल सः मन्त्रालोचनं कर्तुम् आहूतवान् कृष्णः न निश्चितवान् सः चिन्तयति एवं करणीयम् इति किन्तु युक्तायुक्तं युक्तम् अयुक्तं सो मया चिन्त्यमानं युक्तं वा अयुक्तं वा इति विचार्य कथयन्तु सो भवन्तः विचारं कृत्वा वदन्तु किं करणीयं मया राजसूययागस्य रक्षणार्थं गन्तव्यं वा शिशुपालवधस्य वधं कर्तुं गन्तव्यं वा इति कृष्णः पृच्छति अत्र प्रश्नाः सन्ति युधिष्ठिरः किं कर्तुं सङ्कल्पितवान् आसीत् रामनाथ
राजसूययागं कर्तुं सङ्कल्पितवान्
युधिष्ठिरः राजसूययागं कर्तुं सङ्कल्पितवान् आसीत् राजेश्वरी धर्मराजस्य भीतिः का
यागमध्ये विघ्नो भवति इति धर्मराजः भीतः
सम्यक् सो राजसूययागे विघ्नः भवति इति धर्मराजस्य भीतिः राजशर्मा मन्त्रालोचनार्थं कौ आगतौ
श्रीकृष्णस्य अग्रजः नाम बलरामः अपि च उद्धवः
सो अग्रजः बलरामः उद्धवः ज्ञानवृद्धः उद्धवः च मन्त्रालोचनार्थम् आगतौ देवेन्द्रः किं सूचितवान्
देवेन्द्रः शिशुपालस्य वधं कर्तुं सूचितवान्
देवेन्द्रः शिशुपालस्य वधं कर्तुं सूचितवान् कौ न उपेक्षणीयौ
व्याधिः व्याधिः वर्धमानः शत्रुः च न उपेक्षणीयः
सम्यक् व्याधिः वर्धमानः शत्रुः च न उपेक्षणीयौ. सो इतोपि अस्ति अग्रे कथा, अग्रिमवर्गे पठामः. सो अद्य सन्धिषु विसर्गसन्धेः सकारः कुत्र भवति इति दृष्टवन्तः. सो सकारे कृते श्चुत्वम् अथवा श्चुत्वं भवति इत्यपि ज्ञातवन्तः. काव्यकथायां काव्यप्रभेदाः के इति ज्ञात्वा, पञ्चमहाकाव्यानि सन्ति तेषां नामानि कर्तारश्च कर्तॄन् च ज्ञातवन्तः. सो शिशुपालवधं नाम महाकाव्यं, तस्य कर्ता महाकविः माघः, तद्विषये ज्ञात्वा शिशुपालवधस्य कथायां नारदस्य आगमनभागं मन्त्रालोचनं च पठितवन्तः. अग्रिमवर्गः अग्रिमशनिवासरे नवम्बर् मासस्य तृतीयदिनाङ्के. गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. धन्यवादाः.